एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा निगदति राजनीतिक दलानाम् सहमत्या एव संविधान संशोधनम् करिष्यते। विराटनगर विमानस्थले ह्य संचारकर्मिभिः सह भाषमाणः सभापतिः देउवा संविधानस्य संशोधनाय द्वितृतीयांश बहुमतस्य आवश्यकता भवति, त्यतः दलेषु वार्ताम् सहमतिम् च विधायैव संविधान संशोधनम् करिष्यते इति समस्पष्टयत्। सभापतिः देउवा प्रधानमन्त्रिणः केपी शर्मा ओलिनः चीन भ्रमणस्य क्रमे बीआरआई संविधायाम् कापि ऋण संविधा नाभवदिति उदैरयत्। वर्तमान सर्वकारम् प्रति जनतायाः कापि असन्तुष्टि नास्तीति चर्चयन् सभापतिः देउवा राजनीतिक स्थायित्वम् संस्थाप्य देश समृद्धिर्मार्गे अग्रे वर्धमानोस्तीति न्यश्चिनोत्। राष्ट्रपतेः रामचन्द्र पौडेलस्य स्वास्थ्ये सुधारः सम्भूतोऽस्ति। प्रोस्टेट नामाख्यायाः मूत्रावरोध सम्बद्ध समस्यायाः उपचाराय महाराजगंजवर्तिनी त्रिभिः शिक्षण चिकित्सालये प्रवेशितस्य राष्ट्रपतेः पौडेलस्य स्वास्थ्ये सुधारः सम्भूतोऽस्तीति चिकित्सालयस्य निमित्त कार्यकारी निर्देशक निर्देशकेन प्राध्यापकेन डॉ घनश्याम गुरुङ इत्यनेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। राष्ट्रपतेः पौडेलस्य अस्यैव मासस्य ऊनविंशे दिवसे शल्यक्रिया विहिता आसीत्। अत्रान्तरे ह्य राष्ट्रपतेः पौडेलस्य स्वास्थ्यावस्थां ज्ञातुं प्रधानमन्त्री केपी शर्मा ओली त्रिभिः शिक्षण चिकित्सालयं प्राप्य राष्ट्रपतेः शीघ्र स्वास्थ्यलाभं प्रकाम्य उपचाराय आवश्यकं सर्वविधं प्रबन्धनं विधातुं सम्बद्धाधिकारिणः चिकित्सकान् च निर्दिष्टवान् वर्तते। जनकपुर धामनी ह्य सप्ताहव्यापी विवाह पञ्चमी महोत्सवस्य मुख्य दिने रंगभूम्याः प्रांगणे स्वयंवरस्य कार्यक्रमः सम्पन्नोऽस्ति। जनकपुर धामना जानकी मन्दिरात् सवाद्यवादनम् सुरक्षा व्यवस्थया सह गतायाः जनन्याः जानक्याः रंगभूम्याः प्रांगणे प्राप्तेः पश्चात् राम मन्दिरात् गतस्य भगवत श्रीरामचन्द्रस्य परिक्रमायाः अनन्तरं स्वयंवर कार्यक्रमः सम्पन्नः आसीत्। स्वयंवर कार्यक्रमस्य समाप्तेः अनन्तरं जानकी मन्दिर परिसरे निर्मिते विवाह मण्डपे ह्य एव मिथिला परम्परायाः अनुसारेण भगवता श्रीरामचन्द्रस्य मात्रा जानक्या सह प्रतीकात्मकः विवाह कार्यक्रमः सम्पन्नोऽभूदिति जानकी मन्दिरस्य उत्तराधिकारी रामरोशन दास वैष्णवः ज्ञापयति। प्रधान न्यायाधीश प्रकाशमान सिंह राउत न्यायालयं पारदर्शिनं विश्वसनीयं च विधातुं गोल प्रणाल्या न्यायिक निवेदनानां श्रवणं विधीयमानम् अस्तीति स्पष्टीकरोति। सर्वोच्च न्यायालये गोल प्रणाल्या विधीयमानस्य न्यायिक प्रकरणानां श्रवणस्य प्रक्रियायाः समीक्षणाय ह्य आयोजिते पत्रकार सम्मेलने प्रधान न्यायाधीश राउत न्यायालयं पारदर्शिनं विश्वसनीयं च विधातुं न्यायिक प्रकरणानां श्रवणे गोल प्रणाली अवलम्बितेति स्पष्टीकृतवान्। सर्वोच्च न्यायालये अष्टसप्तत्यधिकद्विसहस्रतम विक्रम वर्षस्य पञ्चदश दिवसात् गोल प्रणाल्या न्यायिक प्रकरणानां श्रवणं विधीयमानं वर्तते। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ शीघ्रमेव आर्टिफिसियल इन्टेलिजेन्स एआई नामाख्या कृत्रिम बौद्धिकता नीतिः आनेष्यते इति सूचयति। काष्ठमण्डप विश्वविद्यालयस्य संगणक क्लब नामाख्येन समूहेन ह्य धुलीखेलस्थाने आयोजिते कार्यक्रमे संचार मन्त्री गुरुङ मासाभ्यन्तरे एआई नीतिम् आनीय आवश्यक विधेः निर्माणार्थं सर्वकारः क्रियाशीलोऽस्तीति असूचयत्। संचार मन्त्री गुरुङ राज्य संयन्त्रस्य अन्तर्गतेषु निकायेषु ई गवर्नेन्स नाम्न्याः वैद्युत नीतेः क्रियान्वयने विहिते सति भ्रष्टाचार नियन्त्रणं सम्भविष्यतीति विश्वासम् अभिव्यनक। नेकपा एमाले दलस्य उपमहासचिवः प्रदीप गेवाली निगदति सत्यनिरूपण मेलायोग सम्बद्धस्य विलोपितानां जनानाम् अन्वेषण सम्बद्धस्य च आयोगस्य संघटनस्य कार्यम् अन्तिमचरणे प्राप्तमस्ति। प्रेस चौतारी नेपालेन ह्य म्याग्दी जनपदे बेनीनगरे आयोजिते पत्रकार सम्मेलने उपमहासचिव गेवाली राजनैतिक सहमतेः आधारेण निर्मितस्य सत्यनिरूपण मेल सम्बद्धस्य विलोपितानां जनानाम् अन्वेषण सम्बद्धस्य च अधिनियमस्य क्रियान्वयनाय आयोगस्य पदाधिकारिणां चयनस्य प्रक्रिया अन्तिम चरणे प्राप्ता स्थिति अगदत्। उपमहासचिव गेवाली सहकारी संस्थायां दृष्टानां समस्यानां समाधानाय शक्तिशाली नियमन कारिणः निकायस्य संघटनं संकलित वित्तस्य सुरक्षाया कृते सुरक्षण कोषस्य च निर्माणस्य पूर्वकार्यं विधीयमानम् अस्तीति प्रावोचत्। निर्वाचनायोगेन स्वस्तनात् दिवसात् रविवासरात् सर्वेषां प्रदेशानां जनपद निर्वाचन कार्यालयानां च निर्वाचन कार्यालयेभ्य मतदातृनामावल्यां नाम पंजीकरण कार्यमारप्स्यते। एतत्पूर्व स्थानीय स्तरस्य उपनिर्वाचनस्य प्रयोजनाय आराष्ट्रम नियमेन जायमानं मतदातृनामावली पंजीकरण कार्यं स्थगितम् आसीत्। सम्प्रति उपनिर्वाचनस्य समाप्तेः परिणाम प्रकाशनस्य च पश्चात् नियमितरूपेण मतदातृनामावल्यां नूतन नाम पंजीकरणस्य अद्यावधिकीकरणस्य च कार्यं प्रारप्स्यमाणम् अस्तीति आयोगेन ज्ञापितं वर्तते। मतदातृनामावल्यां नाम पंजीकरणाय नेपाली नागरिकता प्रमाणपत्रम् आवश्यकं भवतीति आयोगेन ज्ञापितमस्ति। नेपाली कांग्रेस केन्द्रीय कार्य सम्पादन समितेः उपवेशः शिव मार्गशीर्ष मासस्य चतुर्विंशे दिवसे आयोक्ष्यते। उपवेशः सोमवासरे प्रातः नववादने दलसभापतेः शेरबहादुर देउवाविधस्य निवासे वत्स्यतीति दलस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः असूचयत्। नेकपा एमाले दलस्य सचिवालयोपवेशः शिव मार्गशीर्ष मासस्य पञ्चविंशे दिवसे मंगलवासराय निर्धारितो वर्तते। च्यासलवर्तिनी दल केन्द्रीय कार्यालय शिव मार्गशीर्ष मासस्य पञ्चविंशे दिवसे आहुते उपवेशे प्रधानमन्त्रिणः दलाध्यक्षस्य च केपी शर्मा ओलिनः चीन भ्रमणस्य उपनिर्वाचनस्य विषययोः अन्येषु सामयिक विषयेषु च विमृक्षते इति दल केन्द्रीय कार्यालयस्य सचिवः डाक्टर भीष्म अधिकारी असूचयत्। पोखरावर्तिन्यः सूर्यदर्शन ऋण सहकारी संस्थायाः वित्तापचलने संलग्न एकोजनः प्रऋणा काष्ठमण्डपाद् निगृहीतोऽस्ति। निगृहीतो जन पोखरा निवासी कृष्ण गुरूङ वर्तते इति केन्द्रीय प्रहरी प्रवक्ता प्रहरी नायब महानिरीक्षकः दानबहादुर कार्की असूचयत। कतारदेशाय गमनस्य क्रमे प्रहरिणा त्रिभुवनान्तर्राष्ट्रिय विमानस्थलात् एष निगृहीतो वर्तते। काष्ठमण्डप सहिते समग्रेऽपि देशे शैत्यस्य वृद्धेः कारणात् अस्मिन् समये प्रतीक्ष्याये काशे च चिकित्सकानां परामर्शं विना आत्मनैव आपणात् औषधं कृत्वा न सेवनीयमिति विज्ञानां चिकित्सकानां परामर्शोऽस्ति। विज्ञैः शीतयामे बालानां वृद्धानां च श्वास प्रश्वास सम्बद्धः प्रतीक्ष्यायः काशः गल संक्रमणम् उदरपीडा चेत्याद्याः समस्याः बाहुल्येन भवितुम् शक्नुवन्तीत्यतः सावधानताम् अविलम्बितुम् सर्वे अनुरुद्धाः वर्तन्ते। इति समाचारः।